అవధాతారం అవధాతారం అవారోజానమవశిష్యం అవపశ్చాత్తాత్ అవపురస్తాత్ అవోత్తరాత్ అవదక్షిణాత్ అవచూర్వాత్ అవాధరాత్ సర్వతో మాం పాహి పాహి సమంతాత్ తమ్మయస్తం చిన్మయః తమానందమయస్తం బ్రహ్మమయః త్వం సచ్చిదానందాద్వితీయోసి త్వం ప్రత్యక్షం బ్రహ్మాసి త్వం జ్ఞానమయో విజ్ఞానమయోసి సర్వం జగదిదం తత్త్వోద్ధారయే సర్వం జగదిదం తత్తస్తిష్ఠతి సర్వం జగదిదం తైవయమేషతి సర్వం జగదిదం తై ప్రత్యేతి త్వం భూమిరాపో నలో నిలో నభః త్వం చత్వారి వాక్ప్రధాని త్వం గుణత్రయాధీశః అగ్నిస్త్వం వాయుస్త్వం సూర్యస్త్వం చంద్రమాస్త్వం బ్రహ్మభూర్భువస్వరోం గణాదీన్ పూర్వముచ్చార్య గణాదీన్ తదనంతరం అనుస్వార పరతరః అర్థేర్ధులసితం మనుస్వరూపం గకారపూర్వరూపం అకారో మధ్యమరూపం అనుస్వారసాయరూపం బిందురుత్తరూపం నాగసంధానం సగుంహికాసంధిః సైషా గణేశ విద్యా గణక ఋషిః నిషద్గాయత్రీ హన్మః గణపతిర్దేవత చతుర్హస్తం పాశమంకుశధారిణం రథం చ వరతం హస్తే విభ్రాణం మూషకధ్వజం రక్తం లంబోదరం సోమకర్ణకం రక్తవాసకం రక్తగంధానులిక్పానం రక్తపుష్పైర్సుపూజితం భక్తానుకంపినం దేవం జగత్కారణమచ్యుతం ఆవిర్భూతం చ సృష్ట్యా గురుప్రకృతే పురుషాత్తరం ఏవం ధ్యాయతి యో నిత్యం స యోగి యోగినాపరః నమో రాతపతయే నమో గణపతయే నమః
विक्रमतपतये नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः भद्रं कर्णे विश्वनुयामदेवाः भद्रं पश्येमाचक्राः स्थिरैरङ्गैः सुष्टुवाधुंसस्तनूभिः व्यजेम देवैतन्यतायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वदेवाः स्वस्ति नस्तार्चो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु। मानुषेभ्यः ऊर्ध्वञ्जिगातु भेषजम् शण्णो अस्त्वद्विपदे शञ्चतुष्पदे
जग्गिरे छन्दागुंसि जग्गिरे
यजुस्तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भयागतः वावो हजद्गिरे तस्मात् तस्माद्धातायः यत्पुरुषम् व्यजतुः प्रतिधाव्यकल्पयन् मुखम् किमस्य कौ बाहू काभूरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः ऊरुतदस्य यद्वैषः पदभ्यागुम् शूद्रो अजायत चन्द्रमानसो जातः चक्षुर्सूर्यो अजायत मुखारिन्द्रश्चानिश्च प्राणाभायुरजायत नाभ्याधीनन्तरिक्षम् श्रीष्णोऽध्यौ समवर्धत श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेकम् पुरुषम् महाङ्गम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः मामानि कृत्वा ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् रविशश्च तस्रः त्वमेवम् विद्वानमृत इह भवति नान्यपन्थायनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानस्य चन्ते यत्र पूर्वे साध्या सन्ति देवाः अर्धसम्भूतपृथिवेरसाच विश्वकर्मणः समवर्तताभि तस्य त्वष्टा विदधत्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेकम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमुदन्य भवति मान्यपन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य वीरा परिजायम् योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्यपति यो देवानाम् पुरोहितः ऊर्वो यो देवेभ्यो धातः नमो रुचाय ब्राह्मणे रुचम् ब्राह्मणम् जनयन्तः देवा अग्रे तदब्रुवन् यस्तैवम् ब्राह्मणो विद्यात् तस्य देवा सन्वशे रीचते लक्ष्मीन प्रज्ञो अहोरात्रे भाष्ये नक्षत्राणि रूपम् तस्मात्सुनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वञ्जिघातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे
सितरथे नमः अग्ने त्वं पारयामद्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पुष्ट पृथ्वी अहुरान उरि अवा ओकाय तदयाय चय्योः विश्वादिनो दुर्गः जातवेदः सिन्धुन्ननावा दुरितातिपर्षि
अस्मे अत्रिमन्मनसा गृहाणो
साकं बोध्यभिता तनूना ऋतनादितगुंसह मानभुग्रमग्निगुम् भुवेव परमा सधस्थात्
स नः पर्षदति दुर्गाणि विश्वा
शामदेवो अतिदुरितात्यग्निः
प्रश्नोऽधिकमेभ्यो
अध्वरेषु सनाच्च होता नभ्यस्य सत्से तनुवम् इप्रयस्वास्मभ्यम् च सो भगवायजस्व
गोभिर्दुष्टमयुजो निषिक्तन्तवेन्द्रविश्वोरनुसञ्चरेम नाकस्य पृष्ठमभिसंवसानो तन्नो दुर्विप्रचोदयात्
वेदा
देवी युषमाणानपाश्वादी भद्रानुमनस्यमाना त्वया दुष्टानुदमाना दुरुक्तान् गृहद्वदे विदते सुवीरा सुसानो दुषस्वद्रविणो मेधे मेधा इन्द्रो ददातु मेधां देवी सरस्वती मेधां मे अश्विना उभावा दत्तां पुष्करस्य अप्सरा सुचया मेधा गन्धर्वेषु च जन्मनः सा बिन्दमाना सामा मेधा
दुषन्तान्
मयि मेधा मयि प्रजा मयि अग्निस्तेजो दधातु मयि मेधा मयि प्रजा मयि इन्द्र इन्द्रियं दधातु मयि मेधा मयि प्रजा मयि सूर्यो दधातु दधातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात्
निधनपतये नमः
निधनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शैवाय नमः शैवलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत् सोमस्य सूर्यस्य समवलिङ्गकुस्थापयति पाणिमन्त्रम् पवित्रम् सद्योधातं प्रपद्यामि सद्योधाताय वै नमो नमः भवे भवे नाति भवे भवत्स्वहा भवोद्भवाय नमः वामदेवाय नमो येष्ठाय नमः श्रेष्ठाय
बलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः
पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ईशानस्सर्वविद्यानामीश्वर सर्वभूतानां ब्रह्माधिपते ब्रह्मणोऽधिपते ब्रह्मा शिवो मे अस्तु सदाशिवो पतये अम्बिकापतय उमापतये पशुपतये नमो नमः ऋतगुं सत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलम् ऊर्ध्वये अम्बिरूपाकं विश्वरूपाय वै नमो नमः सर्वोपै रुद्रस्तस्मै रुद्राय नमो महो नमो नमः विश्वं भूतं भुवनं चित्रं बहुधा जातम्
ಸ್ಯಾತ್.
ಸರ್ವೋಭೇಷ ರುದ್ರಸ್ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು. ತದ್ರುದ್ರಾಯ ಪ್ರಚೇತಸೇ ನೀರುಸ್ತಮಾಯತವ್ಯಸೇ ಓಜೇಮ ಶಂತಮಗುಂ ಹೃದೇ. ಸರ್ವೋಭೇಷ ರುದ್ರಸ್ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು.
ವಿದ್ವಾಶ್ಚತಸ್ರ ತಮೇವ ವಿದ್ವಾಮೃತ ಇಹ ಭವತಿ. ನಾನ್ಯ ಪಂಥಾಯನಾಯ ವಿದ್ಯತೆ ಸಹಸ್ರಶೀರ್ಷಂ ದೇವಂ ವಿಶ್ವಾಕ್ಷಂ ವಿಶ್ವಸಂಭುವಂ ವಿಶ್ವನಾರಾಯಣಂ ದೇವಮಕ್ಷರಂ ಪರಮಂ ಪರಂ ವಿಶ್ವತಃ ಪರಮಾನಿತ್ಯಂ ವಿಶ್ವನಾರಾಯಣಗುಂ ಹರಿಂ. ವಿಶ್ವಮೇವೇದಂ ಪುರುಷಸ್ತದ್ವಿಶ್ವಮುಪಜೀವತಿ. ಪತಿಂ ವಿಶ್ವಸ್ಯಾತ್ಮೇಶ್ವರಗುಂ ಶಾಶ್ವತಗುಂ ಶಿವಮಚ್ಯುತಂ. ನಾರಾಯಣಂ ಮಹಾಧ್ಯೇಯಂ ವಿಶ್ವಾತ್ಮಾನಂ ನಾರಾಯಣಂ. ನಾರಾಯಣ ಪರೋ ಜ್ಯೋತಿರಾತ್ಮಾ ನಾರಾಯಣ ಪರಃ. ನಾರಾಯಣ ಪರಂ ಬ್ರಹ್ಮ ತತ್ವಂ ನಾರಾಯಣ ಪರಃ. ನಾರಾಯಣ ಪರೋ ಧ್ಯಾತಾ ಧ್ಯಾನಂ ನಾರಾಯಣ ಪರಃ. ಯಶ್ಚ ಕಿಂಚಿತ್ ಜಗತ್ ಸರ್ವಂ ದೃಶ್ಯತೆ ಅಂತರ್ಬಹಿಶ್ಚತಃ ಅನಂತಮವ್ಯಯಂ ಕವಿಗುಂಠಮುದ್ರೇಂದಂ ವಿಶ್ವಸಂಭುವಂ. ಪದ್ಮಕೋಶ ಪ್ರತೀಕಾಶಗುಂ ಹೃದಯಂ ಚಾಪ್ಯಭೋಮುಖಂ. ಅಭೋನಿಶ್ಚಾವಿತಸ್ಥಾಂತೇನಾಭ್ಯಾಮುಪರಿತಿಷ್ಠತಿ. ಜ್ವಾಲಮಾಲಾಕುಲಂ ಭಾಗೀ ವಿಶ್ವಸ್ಯಾಯತನಂ ಮಹತ್. ಶಂತಟಗುಂ ಶಿಲಾಭಿಸ್ತುಲಂ ಪತ್ಯಾ ಕೋಶಸನ್ನಿಧಂ. ತಸ್ಯಾಂತೇ ಸುಶಿರಗುಂ ಸೂಕ್ಷ್ಮಂ ತಸ್ಮಿನ್ ಸರ್ವಂ ಪ್ರತಿಷ್ಠಿತಂ. ತಸ್ಯ ಮಧ್ಯೇ ಮಹಾನಗ್ನಿರ್ವಿಶ್ವಾಚಿರ್ವಿಶ್ವತೋ ಮುಖಃ. ಸೋಗ್ರಭುಭಿವಜಂ ತಿಷ್ಠನ್ನಾಹಾರಮಜರಃ ಕವಿಃ. ಹಿರ್ಯಗೂರ್ಧಮಧಶ್ಚಾಯೀಯಶ್ಮಯಸ್ತಸ್ಯ ಸಂತತಾ. ಸಂತಾಪಯತಿ ಸ್ವಂ ದೇಹಮಾಪಾದತಲಮಸ್ತಕ. ತಸ್ಯ ಮಧ್ಯೇ ವಹ್ನಿಶಿಖಾ ಅಣೀಯೋರ್ಧ್ವಾ ವ್ಯವಸ್ಥಿತಃ. ನೀಲಕೋ ಯದ ಮಧ್ಯಸ್ಥಾದ್ವಿಜ್ಜುಲ್ಲೇಖೆ ಅಭಾಷ್ಯ. ನೀವಾಶೂರವತ್ತನ್ವೀಪೀತಾಭಾಸ್ವತ್ಯನೂಪಮಾ. ತಸ್ಯಾ ಶಿಖಾಯಾ ಮಧ್ಯೆ ಪರಮಾತ್ಮಾ ವ್ಯವಸ್ಥಿತಃ. ಸಬ್ರಹ್ಮ ಶಿವಸ್ಥ ಹರಿಸ್ತೇಂದ್ರ ಸೋಕ್ಷರ ಪರಮಸ್ವರಾತ್. ಋತಗುಂ ಸತ್ಯಂ ಪರಂ ಬ್ರಹ್ಮ ಪುರುಷಂ ಕೃಷ್ಣ ಪಿಂಗಲಂ. ಊರ್ಧ್ವರೇತಂ ನಿರೂಪಾಕ್ಷಂ ವಿಶ್ವರೂಪಾಯ ವೈ ನಮೋ ನಮಃ. ನಾರಾಯಣಾಯ ವಿದ್ಮಹೇ ವಾಸುದೇವಾಯ ಧೀಮಹಿ ತನ್ನೋ ವಿಷ್ಣು ಪ್ರಚೋದಯಾತ್. ಯೋ ಮಾಂ ಪುಷ್ಪ ಸಂವೇದ
ಪುಷ್ಪವಾನ್
ಪ್ರಜಾವಾನ್
ಪಶುವಾನ್
ಭವತಿ
ಚಂದ್ರಮಾ
ಅಪಾಂ
ಪುಷ್ಪಂ
ಪುಷ್ಪವಾನ್
ಪ್ರಜಾವಾನ್
ಪಶುವಾನ್
ಭವತಿ
ಯ ಏವಂ
ವೇದ
ಯೋಪಾಮಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಅಗ್ನಿರ್ವಾಪಾಮಾಯತನಂ
ಆಯತನವಾನ್ ಭವತಿ
ಯೋಗ್ನೇರಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಆಯತನವಾನ್
ಭವತಿ
ಯ ಏವಂ
ವೇದ
ಯೋಪಾಮಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ವಾಯುರ್ವಾಪಾಮಾಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
ಯೋ
ವಾಯೋರಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಆಪೋ
ವೈ
ವಾಯೋರಾಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
ಯ ಏವಂ
ವೇದ
ಯೋಪಾಮಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಅಸೌ ವೈ ತಪನ್ನಪಾಮಾಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
ಯೋ ಹುಷ್ಯತಪತ
ಆಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಆಪೋ
ವಾಮುಷ್ಯತಪತ
ಆಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
ಯ ಏವಂ
ವೇದ
ಯೋಪಾಮಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಚಂದ್ರಮಾ
ವಾ
ಅಪಾಮಾಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
ಯಶ್ಚಂದ್ರಮಸ
ಆಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಆಪೋ
ವೈ ಚಂದ್ರಮಸ
ಆಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
ಯ ಏವಂ
ವೇದ
ಯೋಪಾಮಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ನಕ್ಷತ್ರಾಣಿ
ವಾ
ಅಪಾಮಾಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
ಯೋ
ನಕ್ಷತ್ರಾಣಾಮಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಆಪೋ
ವೈ
ನಕ್ಷತ್ರಾಣಾಮಾಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
ಯ ಏವಂ
ವೇದ
ಯೋಪಾಮಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಪರ್ಜನ್ಯೋ
ವಾ
ಅಪಾಮಾಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
ಯ
ಪರ್ಜನ್ಯಸ್ಯಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಆಪೋ
ವೈ
ಪರ್ಜನ್ಯಸ್ಯಾಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
ಯ ಏವಂ
ವೇದ
ಯೋಪಾಮಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಸಂವತ್ಸರೋ
ವಾ
ಅಪಾಮಾಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
ಯಸ್
ಸಂವತ್ಸರಸ್ಯಾಯತನಂ
ವೇದ
ಆಯತನವಾನ್
ಭವತಿ
ಆಪೋ ವೈ
ಸಂವತ್ಸರಸ್ಯಾಯತನಂ
ಆಯತನವಾನ್
ಭವತಿ
प्रतिष्ठिताम् येन रत्येव तिष्ठति राजाधिराजाय दशर्यसाहिने नमो वयम् वै श्रवणाय कुर्महे सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् स्वस्ति प्रजाभ्यः परिपालयन्ता